ॐ तत्सम्यो रावुणीमहे गातुं यज्ञाय
गातुं यज्ञपदये
दैवी स्वस्तिरस्तु नः
स्वस्तिर्मानुषेभ्यः
ऊर्ध्वं जिगातु भेषजम्
शं नो अस्तु द्विपदे
शं चतुष्पदे
ॐ शान्ति शान्ति शान्तिः सहस्रशीरुषा पुरुषः
सहस्राक्षः सहस्रपात्
स भूमिम् विश्वतो भूत्वा
अत्यतिष्ठद्दशाङ्गुलम्
पुरुष एवेदगुम् सर्वम्
यद्भूतम् यच्च भव्यम्
उदामृतत्वस्येषारः
यदन्नेनातिरोहति
एतावानस्य महिमा
अतोऽद्यायावृष्ट्य पूरुषः
पादोऽस्य विश्वा भूतानि
त्रिपादस्यामृतम् दिवि
त्रिपादोर्ध्वमुदैत् पुरुषः
पादोऽस्येह भवात् पुनः
ततो विश्वम् व्यक्रामतु
शनानशने अभि
तस्माद्विराड जायत
विराजो अधिपुरुषः
स जातो अत्यरिच्यत
पश्चाद्भूमिमथो पुरः
यत्पुरुषेण हविषा
देवा यज्ञमतन्वत
वसन्तो अस्यासीदाद्यम्
ग्रीष्म इद्म शरद्धविः
सप्तास्यासन्न परिधयः
त्रिसप्त समिध कृताः
देवा यद्यज्ञम् तन्भाराः
अवध्नन् पुरुषम् पशुम्
तम् यज्ञम् बर्हिषि प्रोक्षन्
पुरुषम् जातमग्रतः
तेन देवा अयजन्त
साध्यार्षयश्च ये
तस्माद्यज्ञात् सर्वहुतः
संभृतम् पृषदार्ग्यम्
वसूगुस्तागुश्चक्रेवायम्यान्
आरण्यान् ग्राम्याश्च ये
तस्माद्यज्ञात् सर्वहुतः
ऋचः सामानि यज्ञिरे
छन्दागुंसि यज्ञिरे तस्मात्
यजुस्तस्मादजायत
तस्मादस्मा अजायन्त
ये केचो भयादतः
गावो ह यज्ञिरे तस्मात्
तस्माज्जाता अजावयः
यत्पुरुषम् यदधुः
कतिधा व्यकल्पयन्
मुखम् किमस्य कौ बाहु
का भूरूपादा उच्येते
ब्राह्मणोऽस्य मुखमासीत्
बाहूराजन्यः कृतः
ऊरूददस्य यद्वैश्यः
पद्व्यागुम् शूद्रो अजायत
चन्द्रमा मनसो जातः
चक्षुःसूर्यो अजायत
मुखादिन्द्रश्चाग्निश्च
प्राणाद्वायुरजायत
नाभ्या आसीदन्तरिक्षम्
शीर्ष्णोद्यौ समवर्तत
पद्भ्याम् भूमिर्दिश श्रोत्रात्
तथा लोकागुम् अकल्पयन्
वेदाहमेतम् पुरुषम् महान्तम्
आदित्यवर्णम् तमसस्तु पारे
सर्वाणि रूपाणि विचित्यधीरः
नामानि कृत्वाभिवदम् यदास्ते
धाता पुरस्ताद्यमुदा जहार
शक्रः प्रविद्वान् प्रदिशश्च तस्रः
तमेवम् विद्वानमृत इह भवति
नान्यः पन्था अयनाय विद्यते
यज्ञेन यज्ञमयजन्त देवाः
तानि धर्माणि प्रथमान्यासन्
ते हराकम् महिमानः सचन्ते
यत्र पूर्वे साध्याः सन्ति देवाः
अभ्यः सम्भूतः पृथिव्यैरसाः च
विश्वकर्मणः समवर्तताधि
तस्य त्वष्टा विदधद्रूपमेति
तत्पुरुषस्य विश्वमाजानमग्रे
वेदाहमेतम् पुरुषम् महान्तम्
आदित्यवर्णम् तमसः परस्तात्
तमेवम् विद्वानमृत इह भवति
नान्यः पन्था विद्यते यनाय
प्रजापतिश्चरति गर्भे अन्तः
अजायमानो बहुधा विजायते
तस्य धीराः परिजानन्ति योनिम्
मरीचीनाम् पदमिच्छन्ति वेधसः
यो देवेभ्य आतपति
यो देवानाम् पुरोहितः
पूर्वो यो देवेभ्यो जातः
नमो रुचाय ब्राह्मये
रुचम् ब्राह्मम् जनयन्तः
देवा अग्रे तदब्रुवन्
यस्त्वैवम् ब्राह्मणो विद्यात्
तस्य देवा सन्वशे
ह्रीश्च ते लक्ष्मीश्च पत्न्यौ
अहोरात्रे पार्श्वे
नक्षत्राणि रूपम्
अश्विनौ व्यात्तम्
इष्टम् मनिषाण
अमुम् मनिषाण
सर्वम् मनिषाण
तच्छं यो रावृणीमहे
गातुम् यज्ञाय
गातुम् यज्ञपतये
दैवी स्वस्तिरस्तु नः
स्वस्तिर्मानुषेभ्यः
ऊर्ध्वम् जिगातु भेषजम्
शं नो अस्तु द्विपदे
शं चतुष्पदे
ॐ शां दिः शां दिः शां दिः।